या ओषधेः पूर्वा जाता देवेभ्यः स्त्रियुगम् पुरा मनैन बभ्रोणा महम् शतम् धामानि सप्त च शतम् वो अम्बधामानि सहस्रमुत पौरुहाः अथ आशदक्रत्वो जोजमिमम् मे अगदम् कृत ओषधेः प्रतिपादध्वम् पुष्पपतेः प्रसोपरेः अश्वा इव सचित्परेर्वेरुधः पारयिष्ट्वाः ओषधेरिति मातरस्तद्वो देवेरुपब्रुवे सनेजमश्वङ्गाम् वास आत्मानन्दमपोरुष अश्वत्थेव निषदनम् पर्णेव वसतिष्कृता गोभाज इत्तिला सधयत्सनवधपोरुषम् यत्रौषधे समग्मधराजा नः समिताविव विप्रस उच्यते भिषग्रक्षोहामी वचातनः अश्वावतीम् स मापते मोर्जयम् देमुदोजसम् आवेत्सि सर्वा ओषधेरस्मा अरिष्टदातजे उच्छष्मा ओषधेनाङ्गावो गोष्ठादिवेरते धनम् सनिष्यन्ते नामात्मानन्दमपोरुष इष्कृतर्नामवो माताथो योजम् स्थनिष्कृतेः सेनाः पदत्रिणे स्थनयदामयति निष्कृत हरिविश्वाः परिष्ठास्तेन इव व्रजमक्रमः ओषधेः प्राचुच्य पर्यत्यञ्च तन्वोरपाः यदि मा वाजयन्नहमोषधेर्हस्त आदधे आत्मा यक्ष्मस्य नश्यति पुराजे मगृभोजथा यस्योषधेः प्रसर्पथाङ्गमङ्गम् परस्परः तथा यक्ष्मम् विवाधध्व उग्रामध्यमशेरिव साकम् यक्ष्मप्रपदचाशेण किकि देविना साकम् वादस्य ध्राज्या साकम् नश्य निहाकया अन्या वा अन्यामवत्मन्यान्यस्या उपावदा ताः सर्वाः संविधाना इदम् मे प्रावतावचाः याः फलिनेर्या अफला अपुष्पायाश्च पुष्पिणेः बृहस्पतिप्रसोदास्तानो अमुञ्चन्दम् हसः मुञ्चन्दमाशपथ्या आदथो अवरुण्या दुत अथो अजपस्य पड्वेषात् सर्वस्माद्देव किल्बिषात् अपपतन्देरवदन् दिव ओषधजस्परे यञ्जेपमष्टवा महैन सरिष्यादिपोरुषः या ओषधेः सोपराज्ञेर्बह्वेः शतविचक्षणाः तासान्तमस्योत्तमारङ्कामाजशम् हृदे या ओषधेः सोमराज्ञेर्विष्ठिताः पृथिवी मनो बृहस्पतिप्रसूता अस्यै सन्दत्तवीर्यम् मा वो ऋषत्खनितायस्मै चाहङ्खनामिवः विपच्चतुष्पदस्माकम् सर्वमस्त्वरातुरम् याश्चेदमुपशृण्वन्ति याश्च दूरम् परागताः सर्वा सङ्गत्यवेरुधोऽस्यै सन्दत्तवीर्यम् ओषधयः संवदन्ते सोमेन सह राज्ञा यस्मै कृणोति ब्राह्मणस्तम् राजन्वारयामसे त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः उपस्थिरस्त्वसो अस्माकञ्ज अस्माकभिदासते